एष रेडियो नेपाल सम्प्रति समाचार श्रीयन्ताम् प्रवाचक ध्रुव भट्टराई राष्ट्रपति विद्यादेवी भण्डारी भाषते पर्वतीयानाम् सामुद्रिक द्वीपयुतानाम् च राष्ट्राणाम् हिताय अधुनापि पर्याप्तस्य अन्तर्राष्ट्रिय विधि निर्माणम् अवशिष्टमेव वर्तते। नेपाल अन्तर्राष्ट्रिय विधि समाजेन ऐशिक अन्तर्राष्ट्रिय विधि समाजेन च गतदिने ललितपुरे आयोजितम् अन्तर्राष्ट्रिय विधि सम्बद्धम् ऐशिक क्षेत्रीय सम्मेलनम् उद्घाटयन्ती राष्ट्रपति भण्डारी अवदत् जलवायु परिवर्तनस्य प्रभावम् सम्बोधयितुमपि अन्तर्राष्ट्रिय विधि आवश्यकता वर्तते। राष्ट्रपति भण्डारी अकथयत् न्याय आदृतया विश्वव्यवस्थाया एव नेपाल सदृशस्य विकासोन्मुख राष्ट्रस्य विशिष्टाम् आवश्यकताम् गम्भीरतापूर्वकम् बद्धम् तदनुरूपमेव नीतिम् निर्मातुम् च सहायता मिलति। राष्ट्रपति भण्डारी नेपाल सर्वविधानम् युद्धानम् विपक्षी स्थिति चर्चयन्ति। राष्ट्राणाम् मध्ये कस्मिन्नपि विवादे उत्पन्ने सति शान्तिपूर्ण माध्यमेन तस्य समाधानम् अन्विष्टव्यमिति मान्यताय अनुयायी राष्ट्रमस्तीति अब्रवीत्। असौ अभासत विश्वस्मिन् विषये आणविका युधानम् प्रतिस्पर्धनम् रोद्धव्यमिति नेपालस्य दृढ विश्वासो वर्तते। सर्वकारेण एसिड नाम्नो ज्वलनाम्लीय पदार्थस्य आक्रमणेन पीडितेभ्यो जनेभ्यो निःशुल्कम् उपचार सेवा प्रदीयते। स्वास्थ्य जनसंख्या मन्त्रालयस्य सह प्रवक्ता डाक्टर समीर कुमार अधिकारी महाराजगंज वर्तिनी त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालय वीर चिकित्सालय पाटन चिकित्सालय कीर्तिपुर चिकित्सालय च ज्वलनशीलाम्लीय पदार्थस्य आक्रमणेन पीडितेभ्यो जनेभ्यो निःशुल्कम् उपचार सेवा प्रदीयते इति अज्ञापयत्। पीडितेन जनेन देशस्य कस्यापि स्वास्थ्य संस्थाया निःशुल्कम् उपचार सेवा प्राप्ते व्यवस्था च विहिता स्थिति सह प्रवक्ता डाक्टर अधिकारी अवदत्। सर्वकारेण ज्वलनाम्लीय पदार्थस्य आक्रमणेन पीडितानाम् जनानाम् उपचार सम्बद्ध गत विक्रमवर्षीय कार्यविधि पारितीकृतो वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड कथयति राष्ट्रे एव प्रथमवारम् उत्पादन वृद्धि लक्ष्यम् निर्धार्य कृषक लक्षितम् आयव्ययकम् प्रस्तुतम् वर्तते। दल सम्बद्धया सम्पर्क समन्वय प्रदेश समित्या गतदिने काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्ष प्रचण्ड कृषक लक्षितस्य आयव्ययकस्य प्रस्तुति कारणेन प्रतिक्रियावादिभिः अनुदारी परम्परावादिभिः जनविरोधिभिश्च तत्त्वै सक्रियतया सत्यासत्यम् आरोपितमिति अवदत्। अध्यक्ष प्रचण्ड माओवादिन नैकान् आरोपन् आक्षिप्य जनताम् भ्रान्तम् विधातुम् षड्यन्त्रम् विधीयमानम् अस्तीति चर्चन अवदत्। एतस्य विदारणम् आवश्यकम् वर्तते। आगामी मासत्रयम् माओवादिन कृते इतोऽपि समयपूर्णम् अस्तीति भासमाण असौ संघीय प्रादेशिक सभानाम् निर्वाचने श्रेष्ठताम् प्राप्तुम् बलम् प्रादात्। अध्यक्ष प्रचण्ड संघीय प्रादेशिक सभानाम् निर्वाचनाय त्रैमासिकम् नैर्वाचनिकाभियानम् सञ्चाल्यमानम् अस्तीति अज्ञापयत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल कथयति पञ्चदलीय गठबन्धनम् संघीय प्रादेशिक निर्वाचनस्य अनन्तरमपि सततम् स्थास्यति। डोटी जनपदस्य सिलगढ़ी स्थाने ह्य संचारकर्मी सह भाषमाण अध्यक्षो नेपाल गठबन्धनम् वर्तमान आवश्यकतास्तीति हेतु चिराय गठबन्धनाय निरन्तरम् प्रदातुम् पञ्चदलानाम् शीर्ष नेतार सहमता सन्तीति स्पष्टीकृतवान्। भिन्न प्रसंगे अध्यक्षो नेपाल गठबन्धनस्य विश्वासेन स्थानीय स्तर निर्वाचने स्वस्य दलेन अपेक्षितानि स्थानानि न विजितानि तथापि आगामिनि संघ प्रदेशानां निर्वाचने अपेक्षणादपि अधिकेषु स्थानेषु विजय लप्स्यति इति विश्वसितवान्। नेकपा एकीकृत समाजवादी दलस्य वरिष्ठ नेता झलनाथ खनाल गदति समाजवादी समाज एव पूर्ण मानवाधिकारणं प्रत्याभूति भवति। काभ्रे पलाञ्चोक जनपदस्य बनेपा स्थाने समाजवादी दलस्य नेपाल आदिवासी जनजाति महासंघस्य जनपद मेलनम् ह्य सम्बोधयन् वरिष्ठ नेता खनाल अवदत् राष्ट्रिय समाजवादस्य स्थापनाय अनन्तरमेव पूर्ण मानवाधिकारणं प्रत्याभूति भविष्यति। वरिष्ठ नेता खनाल अवोचत् समाजवादस्य स्थापनाय पश्चादेव नेपालीभि सुखम् शान्ति समृद्धिश्च अधिगमिष्यन्ते। ह्य शतचतुष्टय अष्टात्रिंशति च जनेषु कोरोना विषाणु संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालय ज्ञापयति। सम्प्रति सक्रिय संक्रान्तानाम् जनानाम् संख्या सहस्रचतुष्टयम् ऊनसप्तत्यधिक त्रिशतम् च वर्तते। ह्य सप्तसप्तत्यधिक शतद्वयम् जना संक्रमणात् मुक्ता सन्ति। संक्रमणेन ह्यो द्वौ जनौ मृतौ। काष्ठमण्डप जनपदे पञ्चशताधिका मोरङ ललितपुर जनपदयो शतद्वयाधिकाश्च संक्रान्त जना सन्ति। मनाङ कालीकोट मुगु हुम्ला बाजुरा जनपदेषु संक्रान्तनाम जनानाम संख्या शून्यम् प्राप्ता वर्तते। सम्प्रति गृहिकान्तवासी सहस्र चतुष्टयश्च अष्टादशाधिक शतद्वयश्च च संस्थागतैकान्तवासी एकपञ्चाशदधिक शतस्य सघनोपचार कक्षे त्रयस्त्रिंशत कृत्रिम श्वास प्रश्वासोपकरणेषु च चतुर्णाम जनानाम् उपचार विधीयमानो वर्तते। ह्य अष्टपञ्चाशत् सहस्राणि उनषष्ट्यधिक पञ्चशतम् च जनाः कोरोना विषाणु प्रतिरोधी टीकाकरणम् आदधत। पर्सा जनपदस्य वीरगंज स्थाने आसन्न सहस्र जनानाम् क्षमता नियन्त्रण केन्द्रस्य निर्माण कार्यम् अन्तिम चरणे प्राप्तमस्ति। पूर्वाधारस्य सर्वाणि कार्याणि सम्पन्नानि सन्ति। सतै सयासु प्राणवायु संयोजनस्य कार्यम् अवशिष्टमस्ति। भारतात् वीरगंज प्रवेश विन्दुना नेपालम् प्रविष्टा नागरिकान् संरक्षण कक्षे स्थापयितुम् अष्टाविंशति कोटीनाम् रूप्यकाणाम् व्ययेन नियन्त्रण केन्द्रस्य भवनमेतत् निर्मितमस्ति। प्युठान जनपदस्य स्वर्गद्वारी नगरपालिकाया चतुर्थवडा क्षेत्र स्थिति भ्यागुती स्थाने यो जीपयानम् दुर्घटितम् सत् एक मृत चतुर्दश जना आहताश्च सन्ति। स्वर्गद्वारी मन्दिरस्य दर्शनानन्तरम् भिङ्ग्री स्थानया सञ्चालित जीपयानम् दुर्घटितम् सत् रूपन्देही जनपदस्य मायादेवी ग्रामपालिकाया तृतीयवडा क्षेत्रस्य गुडिया ठाकुर घटनास्थल एवं अम्रियत इति प्युठान जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षक सत्यनारायण थापा अज्ञापयत्। दुर्घटनायाम् आहतानाम् चतुर्दश जनानाम् मध्ये नवानाम् जनानाम् अवस्था गभीरा स्थिति प्रहरी ज्ञापयति। भिङ्ग्री स्थाने प्राथमिकोपचारस्य पश्चात् आहता जना बुटबल स्थानम् प्रेषिता सन्तीति प्रहरी नायब उपरीक्षक थापा अवोचत। जीपयाने सप्तदश जना आरूढा आसन्। गति नियन्त्रण उपकरणस्य विफलतया जीपयानम् दुर्घटितमिति प्रहरी ज्ञापयति। राष्ट्रिय भूमि आयोगेन पर्सा जनपदस्य प्राय पालिकासु भूमि व्यवस्थापनस्य कार्यम् प्रारब्धमस्ति। प्रथम चरणे वीरगंज महानगरपालिकाया पर्सागढ़ी बहुदरमाई नगरपालिकायोः ठोरी ग्रामपालिकाश्च भूमि व्यवस्थापनस्य कार्यम् विहितम् आसीत्। राष्ट्रिय भूमि आयोगेन द्वितीय चरणे पर्सा जनपदस्य पोखरिया नगरपालिकाया सह पकाहा मैनपुर पटेरवा सुगौली जगन्नाथपुर विन्दवासिनी सखुवा प्रसौनी ग्रामपालिकासु कार्यम् अग्रे वर्धापितमस्ति। भूम्या सम्बद्ध कार्याणाम् सहजताय एतासु पालिकासु सेवा केन्द्र सहजीकरण समिति संघटनस्य नगरपालिकासु सेवा केन्द्रस्य स्थापनायाश्च कार्यम् अग्रे वर्धापितम् अस्तीति आयोगस्य पर्सा जनपद कार्यालयेन ज्ञापितम् वर्तते। हेटौँडा वर्तिना खाद्य प्रविधि गुण नियन्त्रण कार्यालयले न्यून गुणस्तरस्य खाद्य पदार्थानाम् उत्पादकानाम् अष्टानाम् उद्योगानाम् विरूद्धे न्यायिक प्रकरणम् पञ्जीकारितम् वर्तते। विभिन्नेभ्य उद्योगेव उत्पादितानाम् खाद्य पदार्थानाम् निदर्शनानि संकलय्य परीक्षणे विहिते मापदण्डस्य अनुसारेण उत्पादनानि न प्राप्तानि इत्यतः एतेषाम् उद्योगानाम् विरूद्धे सम्बद्ध जनपद न्यायालय जनपद प्रशासन कार्यालय च न्यायिक प्रकरणम् पञ्जीकारितम् इति कार्यालयेन ज्ञापितमस्ति। स्वास्थ्य जनसंख्या राज्यमन्त्री हीराचन्द्र केसी कथयति स्वास्थ्य क्षेत्रे सुधारस्य आवश्यकता वर्तते। यः काष्ठमण्डपे आयोजिते एकीकृत स्वास्थ्यकर्मी संगठन नेपालस्य उपत्यका मेलन कार्यक्रमे असौ स्वास्थ्यकर्मीणाम् समस्या समाधानत्वेन स्वास्थ्य क्षेत्रे सुधारस्य अनुभवनत्वेन च मन्त्रालयेन कार्याणि विधीयन्ते इति प्रतिबद्धताम् व्यक्तवान्। राज्यमन्त्री केसी अधुनापि प्रतिग्राम सहजा सर्वसुलभा च स्वास्थ्य सेवा प्राप्त नास्तीति चर्चयन् प्रतिग्राम स्वास्थ्य प्रापयितुम् योजना निर्मीयमाना सन्तीति ज्ञापितवान्। सर्वकारेण आनीताम् एक विद्यालय एक स्वास्थ्यकर्म इति नीतिम् अनुसृत्य तुलसीपुरस्य गुरू जजुर माध्यमिक विद्यालय सया चतुष्टयुत स्वास्थ्य कक्ष संस्थापितो वर्तते। रुग्ण विद्यार्थिनम् उपचाराय विद्यालयस्य एव निवेशनेन विद्यालय सया चतुष्टयस्य स्वास्थ्य कक्षोऽयं सञ्चालितो वर्तते। विद्यालयस्य सहायक प्रधानाध्यापकस्य प्रमोद नेउपाने विदेश अनुसारेण विद्यालय प्रतिदिनं पञ्चदश तु विंशति यावत् विद्यार्थिनम् रुग्णी भवनानन्तरं विद्यालयेन स्वस्य निवेशनेन उपचाराय सया प्राथमिकोपचारस्य सामग्र्य औषधानि च कृतानि सन्ति। समाचारः।